ओम नमो भगवते वासुदेवाय। अथैकादशोऽध्यायः। श्रीशुक उवाच। गोपानन्दादयः श्रुत्वा द्रुमयोः पततोरवम् तत्रा जग्मुः कुरुश्रेष्ठ निर्घातभयशङ्किताः। भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ। बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम्। उलूखलं विकर्षन्तं दाम्नाबद्धं च बालकम्। कस्येदं कुत आश्चर्यमुत्पात इति कातराः। बाला ऊचुरनेनेति तिर्यग्गतमुलूखलम्। विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि। न ते तदुक्तं जगृहुर्न घटेतेति तस्य तत्। बालस्योत्पाटनं तर्वोः केचित् सन्दिग्धचेतसः। उलूखलं विकर्षन्तं दाम्नाबद्धं स्वमात्मजम्। विलोक्यनन्दः प्रहसत् वदनो विमुमोचः। गोपीभिस्तोभितो नृत्यत् भगवान् बालवत् क्वचित्। उद्गायति क्वचिन्मुग्धस्तद्वशो दारुयन्त्रवत्। बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम्। बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन्। दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम्। व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितैः। क्रीणीः भो फलानीति श्रुत्वा सत्वरमच्युतः। फलार्थी धान्यमादाय ययौ सर्वफलप्रदः। फलविक्रयिणी तस्य च्युतधान्यं करद्वयम्। फलैरपूरयद्रत्नैः फलभाण्डमपूरि च। सरित्तीरगतं कृष्णं भग्नार्जुनमथाव्वयत्। रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम्। नोपेयातां यदाहूतौ क्रीडासङ्गेन पुत्रकौ। यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम्। क्रीडन्तं सा सुतं बालैरतिवेलं सहाग्रजम्। यशोदा जोहवीत् कृष्णं पुत्रस्नेहस्नुतस्तनी। कृष्णकृष्णारविन्दाक्ष तात एहि स्तनं पिब। अलं विहारैक्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक। हे रामा गच्छता तासु सानुजः कुलनन्दन। प्रातरेव कृताहारस्तद्भवान् भोक्तुमर्हति। प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः। एह्या वयोः प्रियं धेहि स्वगृहान् यात बालकाः। धूलिधूसरिताङ्गस्त्वं पुत्रमज्जनमावह। जन्मर्क्षमद्य भवतो विप्रेभ्यो देहि गाः शुचिः। पश्य पश्य वयस्यांस्ते मातृमृष्टान् स्वलङ्कृतान्। त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः। इत्थं यशोदा तमशेषशेखरम् मत्वा सुतं स्नेहनिबद्धधीर्नृप। हस्ते गृहीत्वा सह राममच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम्। गोपवृद्धा महोत्पातानुभूय बृहद्वने। नन्दादयः समागम्य व्रजकार्यममन्त्रयन्। तत्रोपनन्दनामाः गोपो ज्ञानवयोधिकः देशकालार्थतत्त्वज्ञः प्रियकृद् रामकृष्णयोः। उत्थातव्यमितोऽस्माभिर्गोकुलस्य हितैषिभिः। आयान्त्यत्र महोत्पाता बालानां नाशहेतवः। मुक्तः कथञ्चिद् राक्षस्या बालघ्न्या बालको यसौ। हरेरनुग्रहान्नूनमनश्चोपरि नापतत्। चक्रवातेन नीतोऽयं दैत्येन विपदं वियत्। शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः। यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालकः। असावन्यतमो वापि तदप्यच्युतरक्षणम्। यावदौत्पातिकोरिष्टो व्रजं नाभिभवेदितः तावद्बालानुपादाय यास्यामोऽन्यत्र सानुगाः। वनं वृन्दावनं नाम पशव्यं नवकाननं। गोपगोपी गवां सेव्यं पुण्याद्रितृणविरुधम्। तत्तत्राद्यैव यास्यामः शकटान् युङ्क्तमाचिरम्। गोधनान्यग्रतो यान्तो भवतां यदि रोचते। तच्छ्रुत्वैकधियो गोपाः साधु साध्वितिवादिनः। व्रजान् स्वान् स्वान् समायोज्य ययूरूढपरिच्छदाः। वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च। अनस्वारोप्य गोपाला यत्ता आत्तशरासनाः। गोधनानि पुरस्कृत्य शृङ्गाण्यापूर्य सर्वतः। तूर्यघोषेण महता ययुः सह पुरोहिताः। गोप्यो रूढरथा नूत्न कुचकुङ्कुमकान्तयः। कृष्णलीला जगुः प्रीता निष्ककण्ठ्यः सुवाससः। तथा यशोदा रोहिण्या वेकं शकटमास्थिते। रेजतु कृष्णरामाभ्याम् तत्कथा श्रवणोत्सुके वृन्दावनम् सम्प्रविश्य सर्वकालसुखावहम् तत्र जग्रुर्व्रजावासम् शकटैरर्धचन्द्रवत् वृन्दावनम् गोवर्धनम् यमुनापुलिनानि च वीक्ष्यासीदुत्तमा प्रीतिः राममाधवयोर्नृप एवम् व्रजौकसाम् प्रीतिम् यच्छन्तौ बालचेष्टितैः कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः अविदूरे व्रजभुवः सह गोपालदारकैः चारयामासतुर्वत्सान् नानाक्रीडापरिच्छदौ क्वचित् वादयतो वेणुम् क्षेपणैः क्षिपतः क्वचित् क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिमगोवृषैः वृषायमाणौ नर्दन्तौ युयुधा ते परस्परम् अनुकृत्य ऋतैर्जन्तूंश्चेरतुः प्राकृतौ यथा कदाचिद् यमुनातीरे वत्सांश्चारयतोः स्वकैः वयस्यै कृष्णबलयोर्जिगांसुर्दैत्यागमत् तम् वत्सरूपिणम् वीक्ष्य वत्सयूथगतम् हरिः दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् गृहीत्वा परपादाभ्याम् सहलाङ्गूलमच्युतः भ्रामयित्वा कपित्थाग्रे प्राहिणोद्गतजीवितम् स कपित्थैर्महाकायः पात्यमानैः पपातः तम् वीक्ष्य विस्मिता बाला शशंसुः साधु साध्विति देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ सप्रातराशौ गोवत्सांश्चारयन्तौ विचेरतुः स्वम् स्वम् वत्सकुलम् सर्वे पाययिष्यन्त एकदा गत्वा जलाशयाभ्यासम् पाययित्वा पपुर्जलम् ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् तत्र सुर्वज्रनिर्भिन्नम् गिरेशृङ्गमिवच्युतम् स वै बको नाम महानसुरो बकरूपधृक् आगत्य सहसा कृष्णम् तीक्ष्णतुण्डोऽग्रसद्बली कृष्णम् महाबकग्रस्तम् दृष्ट्वा रामादयोर्भकाः बभूवुरिन्द्रियाणीव विना प्राणम् विचेतसः तम् तालुमूलम् प्रदहन्तमग्निवद् गोपालसूनुम् पितरम् जगद्गुरोः चच्छर्द सद्यो तिरुषाक्षतम् बकस्तुण्डेन हन्तुम् पुनरभ्यपद्यत तमापतन्तम् स निगृह्यतुण्डयोर्दोर्भ्याम् बकम् कंससखम् सताम् पतिः पश्यत्सु बालेषु ददारलीलया मुदा वहो वीरणवद्दिवौकसाम् तदा बकारिम् सुरलोकवासिनः समाकिरन्नन्दनमल्लिकादिभिः समीडिरे चानकशङ्खसंस्तवैस्तद्वीक्ष्य गोपालसुता विसिस्मिरे मुक्तम् बका स्यादुपलभ्य बालका रामादयः प्राणमिवैन्द्रियो गणः स्थानागतम् तम् परिरभ्य निर्वृता प्रणीयवत्सान् व्रजमेत्य तज्जगुः श्रुत्वा तद्विस्मिता गोपा गोप्यश्चातिप्रियादृताः प्रेत्यागतमिवौत्सुक्या दैक्षन्त त्रिसिते क्षणाः अहो बतास्य बालस्य बहवो मृत्यवो भवन् अप्यासीद्विप्रियम् तेषाम् कृतम् पूर्वम् यतो भयम् अथाप्यभिभवन्त्येनम् नैव ते घोरदर्शनाः जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् अहो ब्रह्मविदाम् वाचो नासत्याः सन्ति कर्हिचित् गर्गो यदा भगवानन्वभावि तथैव तत् इति नन्दादयो गोपाः कृष्णरामकथाम् मुदा कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् एवम् विहारैः कौमारैः कौमारम् जहतुर्व्रजे निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे वत्सबकवधो नामैकादशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधि माम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।